सरस्वती नमस्तुभ्यं वरदे कामरूपिणी कार्यक्रमारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। अयि अध्ययनशीलाः संस्कृतकार्यक्रमेभ्यः दत्तावधानाः विद्वांसः श्रोतारः संस्कृतजगतः प्रसिद्धे एतस्मिन् साप्ताहिकी कार्यक्रमे अहं रचा झा सादरं सश्रद्धं च स्वागतं करोमि। प्रियाः श्रोतारः, जानन्ति भवन्तः यत् साप्ताहिकी कार्यक्रमस्य प्रत्येकस्मिन् अङ्के ज्ञानवर्धनाय प्रस्तूयते सुभाषितमेकम्। आगच्छन्तु तर्हि शृण्मः अस्य कार्यक्रमस्य प्राणभूतम् अद्यतनं सुभाषितम्, यच्च प्रस्तौति अस्माकं सहयोगी दीपक सोलंकी।
बलं बुद्धिश्च तेजश्च दृष्टतत्त्वस्य वर्धते, सवसन्तस्य वृक्षस्य सौंदर्या गुणा इव। अर्थात जैसे वसंत ऋतु में वृक्षों की सुंदरता तथा शोभा आदि गुण बढ़ जाते हैं, वैसे ही तत्व ज्ञान को जान लेने वाले मनुष्य में बल, बुद्धि और तेज भी बढ़ जाते हैं।
अयि श्रोतृवृन्दाः, सम्प्रति अग्रेसरामः प्रसङ्ग प्रभागं प्रति, यत्र अद्य भगवतः श्रीकृष्णस्य भावपूर्णं स्तवनं विदधाति अस्मदीया सहयोगिनी निधिः झा।
पुनरपि जननम् पुनरपि मरणम् पुनरपि जननम् पुनरपि मरणम् पुनरपि जननी जठरे शयनम् पुनरपि जननी जठरे शयनम् इह संसारे बहुदुस्तारे इह संसारे बहुदुस्तारे कृपया पारे पाहि मुरारे भज गोविंदम् भज गोविंदम् गोविंदम् भज मूढ़मते संप्राप्ते सन्निहिते काले संप्राप्ते सन्निहिते काले नहि नहि रक्षति दुःखं करणे।
अद्भुतं खलु शंकराचार्य विरचितं भज गोविंदं स्तोत्रम्। सम्मान्याः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विक वृत्तान्तः। साम्प्रतं साप्ताहिकी वार्ताः आदाय उपस्थिता अस्ति सुषमा कुमारी।
आर्थिक प्रकरणानां मन्त्रिमण्डलीय समित्या चतुर्दश शरीफ सस्यानां न्यूनतम समर्थन मूल्यं MSP इत्येषां वृद्धिः अनुमोदितास्ति। सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन नवदिल्ल्यां प्रतिपादितं यत् कृषकेभ्यः शस्योत्पादनस्य लाभान्वितं मूल्यं सुनिश्चेतुं वृद्धिरीशा घोषितास्ति। सर्वदलीय प्रतिनिधिमण्डलं वैश्विक स्तरे पाकिस्तानस्य सीम्नि आतंकवादं उत्थापयति। इंडोनेशिया ग्रीस अन्य देशैः आतंकवादं उत्पाटयितुं पूर्ण रूपेण भारतदेशस्य समर्थनं व्याहृतम्। ऋतु विभागेन असम मेघालय कर्नाटक केरल नागालैंड मणिपुर मिजोरम त्रिपुरा तमिलनाडु उत्तराखंड गुजरात झारखंड प्रदेशेषु आगामि पंच दिवसेषु भीषण वृष्टेः संभावना अभिव्यक्तास्ति।
प्रियाः श्रोतारः, साप्ताहिकी वार्ताभिः जागतिक घटना विषये ज्ञात्वा अनन्तरं पुनः उपस्थिताहं ज्ञान विज्ञान प्रभागान्तर्गतम् एकं साक्षात्कारम् आदाय। अस्माभिः साकं संवादाय उपस्थितो अस्ति अस्माकं सहयोगिना सुरेश चन्द्र शर्मणा सह मोतीलाल नेहरू महाविद्यालयस्य संस्कृत विभागस्य सहायकाचार्यः डॉक्टर चन्द्रशेखर त्रिपाठी वर्यः।
साहित्य संगीत कला विहीनः साक्षात् पशुपुच्छ विषाणहीनः तृणं न खादन्नपि जीवमानः तदुभाग देयं परमं पशूनाम्। प्रियाः सुरभारती समुपासकाः श्रोतृवृन्दाः, अतीव हर्षस्य विषयः यद् आकाशवाण्याम् अस्माभिः सह संवादाय अद्य विराजन्ते दिल्ली विश्वविद्यालयान्तर्गतम् मोतीलाल नेहरू महाविद्यालये सहायकाचार्याः डॉक्टर चन्द्रशेखर त्रिपाठी महोदयाः त्रिपाठी वर्याणाम् हर्षातिरिकाभिनन्दन वचोभिः आकाशवाणी पक्षतः अहम् सुरेश चन्द्र शर्मा हार्दिकम् अभिनन्दनम् स्वागतञ्च वर्तामहे।
धन्यवादाः महोदयाः, अहम् अपि अत्र आगत्य हर्षम् अनुभवामि।
महोदयाः, संवाद प्रभागस्य एतस्य प्रथमे अंशे प्रश्नाः यत् काव्यम् नाम किम् अथवा काव्यस्य का परिभाषा इति विषये अस्माकं श्रोतारः ज्ञातुमिच्छन्ति।
आम्, कवेः कर्म इति काव्यम् कथ्यते। काव्यानां शास्त्रम् काव्यशास्त्रम् उच्यते। यस्मिन् काव्ये काव्यानां नियमाः वर्णिताः भवन्ति सः तु काव्यशास्त्रम्।
यत्र सर्वे नियमाः काव्यस्य तत् काव्यशास्त्रम्।
आम् आम्, संस्कृतसाहित्ये काव्यशास्त्रस्य विविधानामपि प्राप्यन्ते, यथा क्रियाकल्प, काव्यालङ्कार, अलङ्कारशास्त्रम्, साहित्यशास्त्रम्, काव्यशास्त्रम्, सौन्दर्यशास्त्रम् च।
एतानि काव्यशास्त्रस्य विविधनामानि सन्ति।
अपरनामानि
सन्ति।
रामायणे काव्यशास्त्राय क्रियाकल्पपदस्य प्रयोगम् वर्तते। क्रियाकल्पविदश्चैव तथा काव्यविदो जनान्। कामशास्त्रस्य जयमङ्गलाटीकायाम् अपि लिखितम् अस्ति क्रियाकल्प इति
काव्यकरणविधि।
आम् आम्, काव्यालङ्कार इत्यर्थे अत्र प्रयुक्त। अपरम् नाम काव्यालङ्कारः। काव्यशास्त्रस्य प्रारम्भिक ग्रन्थाः नाम एव काव्यालङ्कारः अस्ति, यथा भामहस्य काव्यालङ्कारः, वामनस्य काव्यालङ्कार सूत्रवृत्ति, रुद्रट्टस्य काव्यालङ्कारः इति। जयमङ्गलाकारपि क्रियाकल्पपदस्य प्रयोगम् काव्यालङ्कार हेतुर्थम् कृतम्। साहित्यशास्त्रम्। काव्यशास्त्रस्य अपरम् नाम साहित्यशास्त्रमपि अस्ति, यत्र सहितस्य भावम् विद्यते तत्तु साहित्यम्। आम्, तत् शास्त्रम् साहित्यशास्त्रम्। आचार्य राजशेखरः स्वग्रन्थे काव्यमीमांसायाम् साहित्यशास्त्रम् पञ्चमी विद्या स्वीकरोति। पञ्चमी साहित्य विद्येति यायावर्यः, सा हि चतस्रीणामपि विद्यानामपि निस्यन्दः। काव्यस्य शास्त्रम् काव्यशास्त्रम् कथ्यते। अत्र शास्त्रेण तात्पर्यमस्ति शासनात् शास्त्रम् शिष्यते अनेन इति शास्त्रम्। यस्मिन् ग्रन्थे साहित्यस्य अथवा काव्यस्य विषये विविधाः लक्षणाः नियमाः वर्णिताः सन्ति तत्तु काव्यशास्त्रम्।
बहु समीचीनम् मान्यवर्याः। सम्प्रति प्रश्नाः यत् काव्यशास्त्रे कति सम्प्रदायाः सन्ति एतेषाम् सम्प्रदायानाम् विषये स्वीय विचारान् प्रकटीकुर्वन्तु।
आम् महोदय, सम्प्रति काव्यशास्त्रस्य षड् सम्प्रदायस्य उल्लेखम्
मुख्यत्वेन षड् सम्प्रदायः
षड् सम्प्रदाय एव। प्रथमम् तु रससम्प्रदायः। एतस्य उद्भावक आचार्यः भरतमुनिः अस्ति। सः तु नाट्यशास्त्रे रसस्य विशद वर्णनम् कृतवान्। रस्यते इति रसः। रससूत्रस्य उपरि अनेके विचाराः प्राप्यन्ते। भट्टलोल्लटानुसारेण रसस्य उत्पत्तिः भवति। संकुक आचार्यानुसारेण अनुमितिः भवति। भट्टनायकानुसारेण भुक्तिः भवति। तथा च अभिनवगुप्तानुसारेण अभिव्यक्तिः भवति। वामनाचार्यः अस्य सम्प्रदायस्य उद्भावक आचार्यः रूपेण अस्ति। सः तु रीतिः काव्यस्य आत्मा स्वीकरोति। रीतिरात्मा काव्यस्य। अलङ्कारसम्प्रदायः। भामाचार्यः एतस्य उद्भावकः आचार्यरूपेण संस्कृतसाहित्ये प्रसिद्धम् अस्ति। चतुर्थसम्प्रदायः ध्वनिसम्प्रदायः। आचार्य आनन्दवर्धनः ध्वनिम् काव्यस्य आत्मा स्वीकरोति। काव्यस्यात्मा
ध्वनिरेण ध्वनि एव काव्यस्य आत्मा।
काव्यस्य आत्मा तत्र तु त्रिप्रकारेण, वस्तुध्वनि, कलाध्वनि और रसध्वनि। रसध्वनि एव काव्यस्य आत्मा अस्ति। काव्यस्यात्मा ध्वनिरिति बुधैः यः समाम्नात् पूर्वः। आचार्य वक्रोक्तिसम्प्रदायः। आचार्य कुन्तकः संस्कृतसाहित्ये वक्रोक्तिसम्प्रदायस्य उद्भावक आचार्यरूपेण प्रसिद्धः अस्ति। सः तु वक्रोक्तिम् काव्यस्य आत्मा स्वीकरोति। अंतिम संप्रदाय औचित्य संप्रदाय। औचित्य संप्रदायस्य उद्भावक आचार्य क्षेमेन्द्र अस्ति। तस्य मतम अस्ति औचित्य रस सिद्धस्य स्थिर काव्यस्य जीवितम्। क्षेमेन्द्र सप्तविंशति रूपेण औचित्यस्य स्थितिं स्वीकरोति।
बहु समीचीनं मान्यवर्याः। सम्प्रति प्रश्नाः यत् काव्यस्य प्रयोजनं किम् अथवा काव्यस्य मूलभूतम् उद्देश्यं किमस्ति इति विषये अस्माकं श्रोतारः ज्ञातुमिच्छन्ति।
महोदयः, भवान् अपि जानन्ति प्रयोजनम् अनुद्दिश्य न मन्दोऽपि प्रवर्तते।
समीचीनम्।
तो भामहानुसारेण काव्य प्रयोजनम् अस्ति धर्मार्थ काम मोक्षेषु वैचक्षण्यं कलासु च करोति कृतिं प्रीतिं च साधु काव्य निषेवणम्। काव्येन धर्म अर्थ कामश्च प्राप्तिः लोके भवति एतत्तु सिद्धम्। कि मोक्षस्य अपि प्राप्तिं भवितुं शक्नोति एतत्तु विचारणीयः प्रश्नः अस्ति। काव्यस्य उद्देश्यम् अस्ति रामादिवत् कर्तव्यं न तु रावणादिवत्। एवं प्रकारेण मोक्षः अपि भवितुं शक्नोति विधि निषेध वाक्येन। काव्यस्य प्रयोजनं विषये सर्वाधिकं प्रसिद्धं प्रयोजनम् आचार्य मम्मटस्य अस्ति। काव्यं यशसे अर्थकृते व्यवहारविदे शिवेतक्षतये सद्यः परनिर्वृत्तये कान्ता सम्मितयोपदेशयुते। एवं प्रकारेण आचार्य मम्मटः काव्यस्य षड् प्रयोजनं स्वीकरोति। यशसे प्रथमं कालिदास इदानीम् एव यश कारणात् एव प्रसिद्धः अस्ति। अर्थकृते काव्येन धनस्य प्राप्ति भवति एतत्तु सिद्धम्। इदानीं सर्वकारः अपि पुरस्कार रूपेण धनं ददाति। व्यवहारविदे काव्यस्य अध्ययनेन आचार व्यवहारस्य ज्ञानं भवति। शिवेतक क्षतये काव्यस्य पठनेन अनर्थस्य शान्ति भवति
निवारणं भवति।
स्तोत्र काव्याः एतत् उदाहरणं सन्ति। सद्यः परनिर्वृत्तये काव्यस्य रचनया अथवा श्रवणेन अथवा पठनेन सद्यः रसस्य आस्वादनं भवति तेन परमानन्दस्य प्राप्ति भवति। अन्तिमं च प्रयोजनम् अस्ति कान्ता सम्मितयोपदेशुजे। मम्मटानुसारेण त्रिविधा उपदेशाः भवन्ति प्रभु सम्मित सुहृत सम्मित कांता सम्मित।
बहु समीचीनं महोदयाः। सम्प्रति प्रश्नाः यत् मम्मट इति काव्याचार्यानुसारेण काव्य हेतुः किमस्ति इति विषये कृपया स्वीय विचारान् प्रकटीकुर्वन्तु।
एतत् प्रश्नं समीचीनम् अस्ति। मम्मटानुसारेण काव्य हेतुः लक्षणम् अस्ति शक्तिर्निपुणता लोकशास्त्र काव्याद्यवेक्षणात् काव्यज्ञ शिक्षयाभ्यास इति हेतुस्तदुच्यते। आचार्य मम्मटः त्रयः हेतवः स्वीकरोति। प्रथमं तु शक्तिः, द्वितीयः अस्ति निपुणता, अभ्यासः तृतीयः। गुरु सम्पर्केन एव अभ्यासः आवश्यकम् अस्ति स्वमेव न। काव्य हेतुः अत्र मम्मट त्रयः समुदिताः कथितम् अस्ति न तु व्यस्ताः। कारणम् अस्ति कि एकवचनस्य प्रयोगं न, त्रयः हेतवः मिलित्वा एव हेतु अस्ति। एकं विना अपि काव्यस्य रचना सम्भवः वर्तते।
बहु समीचीनं महोदयाः। अद्य काव्यशास्त्रम् इति विषयम् अभिलक्ष्य भवद्भिः प्रतिपादितैः शास्त्रविद्वद्वचोभिः वयं धन्याः अनुगृहीताः। पौनः पुन्येन भवद्भ्यः हार्दाः धन्यवादाः। सादरं प्रणामाः। नमो नमः।
धन्यवादः सुरेश चंद्र शर्मा महोदयः।
जयतु भारतम्।
जयतु संस्कृतम्।
ज्ञानप्रदः संवादः एषः। अयि रसिकाः श्रोतारः, आगच्छन्तु संस्कृत दिग्दर्शन प्रभागे, यत्र विश्वे संस्कृत संवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीया सहयोगिनी मुदिता वेतालः।
उत्तराखण्डस्य संस्कृत शिक्षा विभागान्तर्गतं संस्कृत अकादम्या उत्तराखण्ड सचिवालये पाक्षिकं संस्कृत सम्भाषण शिविरम् आयोज्यते। मे मासस्य 29 दिने शिविरोद्घाटनम् अभवत्। समापनं च जून मासस्य 12 दिने भविष्यति। नवदिल्लीस्थेन श्रीलाल बहादुर शास्त्री केन्द्रीय संस्कृत विश्वविद्यालयेन पूर्वच्छात्रैः सह उपवेशनम् आयोजितम्। गुरुवासरे मे 29 आयोजिते कार्यक्रमे पूर्वच्छात्रैः सोत्साहं प्रतिभागिता कृता। केन्द्रीय संस्कृत विश्वविद्यालयस्य गंगानाथ झा परिसरे पाण्डुलिपि संरक्षण परिरक्षणस्य प्रविधयः इति विषये द्विदिवसीया प्रशिक्षण कार्यशाला आयोजिता, यत्र पाण्डुलिपि विज्ञानं पुरालिपि शास्त्रस्य च स्नातकोत्तर डिप्लोमा इति पाठ्यक्रमयोः छात्रैः पाण्डुलिपि संरक्षणस्य पारंपरिक वैज्ञानिक पद्धतीनां प्रयोगात्मक प्रशिक्षणं प्राप्तम्। उत्तर प्रदेश संस्कृत संस्थानेन संचाल्यमानानां संस्कृत भाषा शिक्षण कक्षाणां परतया समापन सत्रं मे मासस्य 30 दिनांके शुक्रवासरे समायोजितम्। एतासु कक्षासु प्रतिभागिभिः संस्कृत भाषा शिक्षणस्य प्रशिक्षणं प्राप्तम्। धन्यवादाः।
अयि संस्कृत समाराधकाः, अद्य बालवल्लरी प्रभागे साधना शर्मणा प्रस्तूयते ग्रीष्मावकाशमालक्ष्य वार्ताः।
बालाः, विद्यालयात् ग्रीष्मावकाशः प्राप्तः खलु? आयान्तु ग्रीष्मावकाश विशेषं शृण्वन्तु। आर्य नाम्ना बालकः आसीत्। विद्यालयात् ग्रीष्मावकाशं प्राप्य अत्यन्तं प्रसन्नः आसीत्। भवादृशः एव सः मातरं वदति, मातः, ग्रीष्मावकाशः प्राप्तः, अहं दिवसे शयनं करिष्यामि, रात्रौ शयनं करिष्यामि, आदिवसं क्रीडनं करिष्यामि, याहू। तर्हि माता वदति, वच्च, अवकाशः शयनाय क्रीडायै एव न, अवकाशे त्वं किञ्चित् नूतनं कर्तुम् अर्हसि। तदा आर्यः पत्रे योजनां रचयति। पूर्वं सः गृहपाठं करिष्यति, पाठं च पठिष्यति, स्वस्थ दिनचर्यायै योगं करिष्यति, मात्रा सह पाकमपि करिष्यति, ग्रामं गमिष्यति, पितामह मातामहादिभिः सह दिनानि यापयिष्यति, ग्रामे स्थित्वा कृषिकार्यमपि द्रक्ष्यति, वृक्षारोपणं करिष्यति, कौशलं शिल्पं च पठिष्यति, एकं वारं द्वित्रदिवसं पितृभ्यां सह भ्रमणाय अपि गमिष्यति। इत्थम् आर्यः ग्रीष्मावकाशस्य एकं मासं सुखेन यापितवान्। तर्हि बालाः, यूयम् अपि न केवलं विश्रामं कुरुथ, अपि तु अस्मिन् अवकाशे आत्मविकासं च कुरुथ। धन्यवादः।
प्रियाः सहृदयाः श्रोतारः, बालवल्लरी प्रभागानन्तरम् अग्रिमः प्रभागो अस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र अस्माकं सहयोगी पुरुषोत्तम शर्मा श्रावयति संस्कृत हिंदी कुमाऊनी भाषासु नानाविध वाक्यानि।
प्रथमं वाक्यम् अस्ति, जून मासस्य प्रथमे दिने संस्कृत पत्रकारिता दिवसः आयोज्यते। हिंदी में, 1 जून के दिन संस्कृत पत्रकारिता दिवस मनाया जाता है। कुमाऊनी में, 1 जून दिन संस्कृत पत्रकारिता दिवस मनाई जाच। द्वितीयं वाक्यमस्ति, 68-18 वर्षे प्रथम संस्कृत पत्रिका प्रकाशिता। हिंदी में, सन 1886 में पहली संस्कृत पत्रिका प्रकाशित हुई। कुमाऊनी में, सन 1866 में पहली संस्कृत पत्रिका छपी। तृतीयं वाक्यमस्ति, काशी विद्या सुधानिधि प्रथमा संस्कृत पत्रिका आसीत्। हिंदी में, काशी विद्या सुधानिधि पहली संस्कृत पत्रिका थी। कुमाऊनी में, काशी विद्या सुधानिधि पहली संस्कृत पत्रिका छु। चतुर्थं वाक्यमस्ति, आकाशवाण्याः अपि साप्ताहिक संस्कृत पत्रिकायाः प्रसारणं भवति। हिंदी में, आकाशवाणी से भी साप्ताहिक संस्कृत पत्रिका प्रसारित की जाती है। कुमाऊनी में, आकाशवाणी बेले साप्ताहिक संस्कृत पत्रिका प्रकाशित की जाच। धन्यवाद।
अधुना तु कालः समायातः प्रस्थान वेलायाः। अग्रिमे सप्ताहे अस्मिन् एव काले अभिनवम् एकम् अङ्कम् आदाय पुनः उपस्थास्यामहे। तावत्पर्यन्तं भवन्तः सर्वे स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियाम् अस्मभ्यं प्रेषितुं शक्नुवन्ति। अस्माकम् ईमेल संकेतो वर्तते nsdsanskrit@gmail.com इति। नमो नमः।